ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। श्रीशुक उवाच। नन्दपतिवचः शौरेर्न मृषेति विचिन्तयन् हरिं जगाम शरणमुत्पातागमशङ्कितः। कंसेन प्रहिता घोरा पूतना बालघातिनी। शिशूंश्चचार निघ्नन्ति पुरग्रामव्रजादिषु। न यत्र श्रवणादीनि रक्षोऽज्ञानि स्वकर्मसु। कुर्वन्ति सात्वताम् भर्तुर्यातु धान्यश्च तत्र हि। साखेचर्येकदोपेत्य पूतनानन्दगोकुलम् योषित्वा माययात्मानम् प्राविशत्कामचारिणी। ताम् केशबन्धव्यतिशक्तमल्लिकाम् बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् सुवाससम् कम्पितकर्णभूषणत्विशोल्लसत्कुन्तलमण्डिताननाम् वल्गुस्मिताबाङ्गविसर्गवीक्षितैर्मनोहरन्तीम् वनिताम् व्रजौकसाम् अमंसताम् भोजकरेण रूपिणीम् गोप्यः श्रियम् द्रष्टुमिवागताम् पतिम्। बालग्रहस्तत्र विचिन्वती शिशून् यदृच्छयानन्दगृहे सदन्तकम्। बालम् प्रतिच्छन्न निजोरुतेजसम् तदर्शतल्पेऽग्निमिवाहितम् भसि। विबुध्यताम् बालकमारिकाग्रहम् चराचरात्मा स निमीलिते क्षणः। अनन्तमारोपयदङ्कमन्तकम् यथोरगम् सुप्तमबुद्धिरज्जुधीः। ताम् तीक्ष्णचित्तामतिवामचेष्टिताम् वीक्ष्यान्तराकोशपरिच्छदासिवत्। वरस्त्रियम् तत्प्रभया च धर्षिते निरीक्षमाणे जननीय तिष्ठताम्। तस्मिन् स्तनम् दुर्जरवीर्यमुल्बणम् घोराङ्कमादाय शिशोर्ददावथ। गाढम् कराभ्याम् भगवान् प्रपीड्य तत् प्राणैः समम् रोषसमन्वितोऽपि बत्। सामुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्यमानाखिल जीवमर्मणि। विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्न गात्रा क्षिपतीरुरोदः। तस्या स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचालसग्रहा। रसादिशश्च प्रतिनेदिरे जना पेतुक्षितौ वज्रनिपातशङ्कया। निशाचरीत्थम् व्यथितस्तना व्यसुर्व्यादाय केशांश्चरणौ भुजावपि। प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्रैवापतन्नृप। पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान्। चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम्। ईशामात्रोग्रदंष्ट्रास्यम् गिरिकन्दरनासिकम्। गन्धशैलस्तनम् रौद्रम् प्रकीर्णारुणमूर्धजम्। अन्धकूपगभीराक्षम् पुलिनारोहभीषणम्। बद्धसेतुभुजोर्वङ्घ्रि शून्यतो यहृदोदरम्। सन्तत्र सुस्म तद्वीक्ष्य गोपा गोप्यः कलेवरम्। पूर्वम् तु तन्निस्वनित भिन्नहृत्कर्णमस्तकाः। बालम् च तस्या उरसि क्रीडन्तमकुतो भयम्। गोप्यस्तूर्णम् समभ्येत्य जगृहुर्जात सम्भ्रमाः। यशोदारोहिणीभ्याम् ता समम् बालस्य सर्वतः। रक्षाम् विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः। गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम्। रक्षाम् चक्रुश्च सकृता द्वादशाङ्गेषु नामभिः। गोप्य संस्पृष्ट सलिला अङ्गेषु करयोः पृथक्। न्यस्यात्मन्यथ बालस्य बीजन्या समकुर्वत। अव्यादजोऽङ्घ्रिमणिमांस्तवजान्वथोरु यज्ञोच्युतः कटितटम् जठरम् हयास्यः। हृत्केशवस्त्वदुरैष इनस्तु कण्ठम् विष्णुर्भुजम् मुखमुरुक्रमैश्वरः कम्। चक्र्यग्रतः सह गदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च। कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यक्षितौ हलधरः पुरुषः समन्तात्। इन्द्रियाणि ऋषिकेशः प्राणान्नारायणोऽवतु। श्वेतद्वीपपतिश्चित्तम् मनो योगेश्वरोऽवतु। पृष्णिगर्भस्तु ते बुद्धिमात्मानम् भगवान् परः। क्रीडन्तम् पातु गोविन्दः शयानम् पातु माधवः। व्रजन्तमव्याद्वैकुण्ठ आसीनम् त्वाम् श्रियः पतिः। भुञ्जानम् यज्ञ भुक् पातु सर्वग्रह भयङ्करः दाकिन्यो यातु धान्यश्च कूष्माण्डायैर्भकग्रहाः भूतप्रेतपिशाचाश्च यक्षरक्षो विनायकाः कोटरा रेवती ज्येष्ठा पूतना मातृकादयः उन्मादाये यपस्मारा देहप्राणेन्द्रियद्रुहः स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः श्रीशुक उवाच इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् पाययित्वा स्तनम् माता सन्निवेशयदात्मजम् तावन्नन्दादयो गोपा मथुराया व्रजम् गताः विलोक्य पूतना देहम् बभूवुरतिविस्मिताः नूनम् बतर्षिः सञ्जातो योगेशो वासमाससः स एव दृष्टो ह्युत्पातो यदा हानकदुन्दुभिः कलेवरम् परशुभिश्छित्त्वा तत्ते व्रजौगसः दूरे क्षिप्त्वा वयवशो न्यदहन् काष्ठधिष्ठितम् दह्यमानस्य देहस्य धूमश्चा गुरुसौरभः उत्थितः कृष्णनिर्भुक्त सपद्या हतपाप्मनः पूतना लोकबालघ्नी राक्षसी रुधिराशना जिघांसयापि हरये स्तनम् दत्त्वापसद्गतिम् किम् पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने यच्छन् प्रियतमम् किम् नु रक्तास्तन्मातरो यथा पद्भ्याम् भक्तहृदिस्थाभ्याम् वन्द्याभ्याम् लोकवन्दितैः अङ्गम् यस्या समाक्रम्य भगवानपि बत्स्तनम् यातु धान्यपि सा स्वर्गमवापजननी गतिम् कृष्णभुक्तस्तनक्षीरा किमु गावो नु मातरः पयांसि यासामपि बत् पुत्रस्नेहस्नुतान्यलम् भगवान् देवकी पुत्रः कैवल्याद्यखिलप्रदः तासामविरतम् कृष्णे कुर्वतीनाम् सुते क्षणम् न पुनः कल्पते राजन् संसारो ज्ञानसम्भवः कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः किमिदम् कुत एवेति वदन्तो व्रजमाययुः ते तत्र वर्णितम् गोपैः पूतनागमनादिकम् श्रुत्वा तन्निधनम् स्वस्ति शिशोश्चासन् सुविस्मिताः नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः मूर्ध्न्युपाघ्राय परमामुदम् लेभे कुरुद्वः य एतत्पूतना मोक्षम् कृष्णस्यार्भकमद्भुतम् शृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।